एतत् सर्वनाम पुल्लिंग येथे द्वितीया विभक्तीच्या सर्व वचनांची दोन दोन रूपे होतात. ती अगदी सावकाश म्हणावी म्हणजे चुकत नाहीत. ऐका हा, एषः, एतौ, एते प्रथमा, एतम, एनम, एतौ, एनौ, एतान, एनान द्वितीया, एतेन, एनेन, एताभ्याम, एतैः तृतीया, एतस्मै, एताभ्याम, एतेभ्यः चतुर्थी, एतस्मात्, एताभ्याम, एतेभ्यः पञ्चमी, एतस्य, एतयोः, एनयोः, एतेषां षष्ठी, एतस्मिन्, एतयोः, एनयोः, एतेषु सप्तमी.